इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। लोकसभा निर्वाचनस्य सप्तमस्य अन्तिमचरणस्य च प्रचारः ह्यः सायं समाप्तम्। सप्तराज्येषु विस्तृतानि सप्तपञ्चाशत् संसदीय क्षेत्राणि एकं केन्द्रशासित क्षेत्रं च अस्मिन् चरणीय मतदाने संलग्नानि सन्ति। मतदानं च जून मासस्य प्रथमे दिनांके श्वः भविष्यति। एतेषु क्षेत्रेषु उत्तरप्रदेश पंजाबयोः च त्रयोदश त्रयोदश, पश्चिमबंगस्य नव, बिहारस्य अष्ट, ओडिशायाः षड्, हिमाचलप्रदेशस्य चत्वारि, झारखण्डस्य त्रीणि, चण्डीगढ़स्य केन्द्रशासितक्षेत्रस्य एकैकम् आसन्दनानि च सन्ति। ओडिशाराज्यस्य द्विचत्वारिंशत् विधानसभासनानाम् अपि अस्मिन् चरणे युगपदेव निर्वाचनं भविष्यति। सप्तपञ्चाशत् लोकसभासनेभ्यः आहत्य चतुरधिकनवशतम् अभ्यर्थिनः सन्ति। विभिन्नराजनीतिकदलानां शीर्षनेतारः निर्वाचनप्रचारस्य अन्तिमक्षणेषु जनसभया पथप्रदर्शनेन च स्वपक्षे मतं प्राप्तुं प्रयासं कृतवन्तः। ह्यः हिमाचलप्रदेशे केन्द्रीयमन्त्री तथा भाजपावरिष्ठनेता नितिनगडकरी तथा कांग्रेसनेत्री प्रियंका गांधी राज्ये प्रचारं कृतवन्तौ। झारखण्डे अधुना भाजपा झामुमो, कांग्रेस, राजद, वामदलानि च समेत्य राजनीतिकदलानि प्रतिद्वारम् अभियानम् आरब्धवन्तः। जनाः स्वप्रत्याशिनः पक्षे मतदानं कर्तुम् अनुरोधं कुर्वन्ति। झारखण्डस्य मुख्य निर्वाचन पदाधिकारी के रविकुमारः अवदत् यत् तीव्रतापं दृष्ट्वा मतदानकक्षेषु अनेके उपायाः कृताः सन्ति। स्वतन्त्रं निष्पक्षं च निर्वाचनं सुनिश्चेतुं सुरक्षाबलानाम् अत्यधिकनियोजनम् अपि अस्ति। प्रधानमन्त्री नरेन्द्रमोदी ह्यः आरभ्य तमिलनाडुप्रदेशस्य कन्याकुमार्यां त्रिदिवसीययात्रायाम् अस्ति। कन्याकुमार्यां श्रीमोदी शिलास्मारकं गत्वा पुरा, यत्र स्वामीविवेकानन्दः ध्यानं कृतवान्, तत्रैव ध्यानमण्डपे शनिवासरं यावत् ध्यानं करिष्यति। अस्याः शिलायाः स्वामी विवेकानन्दस्य जीवने महति प्रभावः अस्ति। जम्मूकश्मीरे ह्यः अपराह्णे जम्मूमण्डलस्य अखनूर उपमण्डलस्य तुङ्गीमोड़क्षेत्रे तीर्थयात्रिकान् वहत् बसयानं गभीरखात्यां पतित्वा न्यूनातिन्यूनं विंशतिः यात्रिकाः मृताः, पञ्चदश जनाः घातिताः च सन्ति। आकाशवाण्याः जम्मू संवाददाता ज्ञापितवान् यत् प्रणितानाम् उपमण्डलीय चिकित्सालये अखनूर इत्यत्र स्थानान्तरणं कृत्वा यतः गभीररूपेण घातितानां जम्मूकश्मीरस्य जम्मूनगरस्य शासकीय चिकित्सामहाविद्यालयं प्रति प्रेषणं कृतमस्ति। मृतकानां व्रणितानां च परिचयः निश्चीयते। जम्मूतः रियासी मण्डलस्य शिवखोरी गुहायां प्रति गच्छत् एतत् बसयानम् अधिकतया उत्तरप्रदेशस्य तीर्थयात्रिकान् वहति स्म। अधिकविवरणं च प्रतीक्षते। भारतीय रिजर्व बैंक इत्यनेन वर्तमान वित्तीय वर्षस्य सकल दैशिक उत्पाद वृद्धिः 7% यावत् भविष्यतीति संभावना प्रकटिता। केन्द्रीय बैंक इत्यनेन वार्षिक प्रतिवेदने उक्तं यत् त्रयोविंशत्यधिकद्विसहस्रतमे वित्तीयवर्षे भारतीयार्थव्यवस्थायाः विस्तारः सुदृढगत्या अभवत्। भारतस्य ऋतुविज्ञानविभागेन आईएमडी इत्यनेन सूचितं यत् दक्षिण पश्चिम वर्ष ऋतुः केरलस्य उपरि प्रविश्य अद्य पूर्वोत्तर भारतस्य अधिकांशभागेषु उन्नतिं याति। जूनमासस्य प्रथमदिनांकः इति सामान्य प्रारम्भदिनात् दिनद्वयं पूर्वम् एव वर्षर्तुः आगतः।